ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। श्री शुक उवाच। एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः। तेषामाविर्भूत् राजन् सहस्रार्कोदयद्युतिः। तेनैव महसा सर्वे देवाः प्रतिहते क्षणाः। नापश्यन् खं दिशक्षोणीमात्मानं च कुतो विभुम्। विरिञ्चो भगवान् दृष्ट्वा स शर्वेण तां तनुम्, स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम्। तप्तहेमावदातेन रसत्कौशेयवाससा, प्रसन्नचारु सर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम्। महामणिकिरीटेन केयूराभ्यां च भूषिताम्, कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम्, काञ्चीकलापवलयहारनूपुरशोभिताम्, कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीं, सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम्। तुष्टावदेव प्रवरः स सर्वः पुरुषं परम्, सर्वामरगणैः साकं सर्वाङ्गैरवनिङ्गतैः। ब्रह्मोवाच। अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय, अणोरणिम्ने परिगण्य धाम्ने महानुभावाय नमो नमस्ते। रूपं तवैतत्पुरुषर्षभेद्यं श्रेयोर्थिभिर्वैदिकतान्त्रिकेण, योगेन धातः सह न स्त्रिलोकान् पश्याम्यमुस्मिन्नुह विश्वमूर्तौ। त्वय्यग्रासीत् त्वयि मध्यासीत् त्वय्यन्तासीदिदमात्मतन्त्रे, त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात्। त्वं माययात्मा श्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः। पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः। यथाग्निमेधस्य मृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम्, योगैर्मनुष्याधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति। तं त्वां वयं नाथ समुज्जिहानं सरोजनाभाति चिरेप्सितार्थम्। दृष्ट्वा गता निर्वृतिमद्य सर्वे गजादवार्ता इव गाङ्गमम्भः। स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम्। समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः। अहं गिरित्रश्च सुरादयो ये दक्षादयोग्नेरिव केतवस्ते, किं वा विदामेश पृथग् विभाता विधत्स्वशं नो द्विजदेव मन्त्रम्। श्रीशुक उवाच। एवं विरिञ्चादिभिरीडितस्तत् विज्ञायतेषां हृदयं तथैव। जगादजीमूतगभीरया गिराबद्धाञ्जलीन् संवृत सर्वकारकान्। एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः। विहर्तु कामस्थानाः समुद्रोन्मथनादिभिः। श्रीभगवानुवाच। हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम्, शृणुता वहिताः सर्वे श्रेयो वस्याद्यथा सुराः। या तदानवदैतेयैस्तावत्सन्धिर्विधीयताम्, कालेनानुगृहीतैस्तैर्यावद्वो भवात्मनः। अरयोऽपि हि सन्धेया सति कार्यार्थगौरवे, अहिमूषकवद्देवायर्थस्य पदवीं गतैः। अमृतोत्पादने यत्नः क्रियतामविलम्बितम्, यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत्। क्षिप्त्वा क्षीरोदधौ सर्वा वीरुतृणलतौषधीः, मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्। सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः, क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः। यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः, न संरम्भेण सिद्ध्यन्ति सर्वेऽर्थाः सान्त्वया यथा। न भेतव्यं कालकूटाद्विषाज्जलति सम्भवात्। लोभः कार्यो नवो जातु रोषः कामस्तु वस्तुषु। श्रीशुक उवाच। इति देवान् समादिश्य भगवान् पुरुषोत्तमः, तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः। अथ तस्मै भगवते नमस्कृत्य पितामहः। भवस्य जग्मतु स्वं स्वं धामोपेयुर्बलिन्सुराः, दृष्ट्वारीनप्यसंयत्तान् जातक्षोभान् स्वनायकान्। न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित्, ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः। श्रिया परमया जुष्टं जिताशेषमुपागमन्, महेन्द्रः स्लक्ष्णया वाचा सान्त्वयित्वा महामतिः। अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात्, तदरोचत दैत्यस्य तत्रान्ये ये सुराधिपाः। शम्बरोरिष्टनेमिश्च ये च त्रिपुरवासिनः, ततो देवासुराः कृत्वा संविदं कृतसौहृदाः। उद्यमं परमं चक्रूरमृतार्थे परन्तप, ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः। नदन्तौ दधिं निन्युः शक्ताः परिकबाहवः, दूरभारोद्वः श्रान्ताः शक्रवैरोचनादयः। अपारयन्तस्तं वोढुं विवसा विजहूपथि निपतन् स गिरिस्तत्र बहूनमरदानवान् चूर्णयामास महता भारेण कनकाचलः तांस्तथा भग्नमनसो भग्नबाहुरुकन्धरान् विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः गिरिपादविनिस्पृष्टान् विलोक्यामरदानवान् ईक्षया जीवयामास निर्जरान् निर्वृणान्यथा गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ययौ जलान्तौत्सृज्य हरिणा स विसर्जितः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।